इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। वरिष्ठः भाजपा नेता प्रधानमन्त्री च नरेन्द्र मोदी उक्तवान् यत् दक्षिणीय राज्येषु राष्ट्रिय लोकतान्त्रिक संयुतेः पक्षे उत्साहः दृश्यते। तेलंगानायाः जगतियाले ह्यः एकां नैर्वाचनिक जनसभां सम्बोधयन् श्रीमोदी उक्तवान् यत् भाजपादलं तेलंगाना क्षेत्रीय जनानाम् आकांक्षाः पूरयितुं वचनबद्धमस्ति। तेन उक्तं यत् जगतियालस्य जनसभायाम् एकत्रितः जनसम्मर्दः स्पष्टतया संकेतयति यत् वायुः कस्यां दिशि प्रवहति। एतदनन्तरं प्रधानमन्त्री कर्णाटकस्य शिवमोग्गा जनपदे जनसभां सम्बोधितवान्। कांग्रेसदलम् आक्षिपन् सः अवदत् यत् कांग्रेसदलं भ्रष्टाचरणात्मक राजनीतिं करोति। अपरतः भारतीय जनता पार्टीति दलस्य अर्थः अस्ति विकासः विकसितं भारतं च। लोकसभा निर्वाचनात् पूर्वं निर्वाचनायोगेन ह्यः अधिकारिणां बृहत्स्तरे स्थानान्तरणाय आदेशः प्रदत्तः। आयोगेन पश्चिमबंगस्य आरक्षिमहानिदेशकं समेत्य षट् राज्यानां गृहसचिवाः अपि निष्कासिताः। सूत्रानुसारि गुजरातस्य उत्तरप्रदेशस्य बिहारस्य झारखण्डस्य हिमाचलप्रदेशस्य उत्तराखण्डस्य च गृहसचिवाः स्थानान्तरिताः। मिजोरम हिमाचलप्रदेशयोः सामान्य प्राशासनिक विभागस्य सचिवौ अपि स्थानान्तरितौ। तदतिरिच्य बृहन्मुम्बई नगरपालिकायुक्तस्य इकबाल सिंह चहलस्य अपि च अतिरिक्तायुक्तानाम् उपायुक्तानां च स्थानान्तरणस्य आदेशः निर्वाचनायोगेन दत्तः। स्टार्टअप महाकुम्भः गतवासरे नवदिल्ल्याः भारतमण्डपम् इत्यत्र समारब्धम्। अयं कार्यक्रमः मार्चमासस्य विंशति दिनांकं यावत् प्रचलिष्यति। अस्मिन् आयोजने विभिन्न स्टार्टअप इति नवोद्योगानां विभिन्न मण्डपाः भविष्यन्ति। येष् एआई, बीटूबी, एग्रीटेक, डीपटेक, क्लाइमेटटेक, गेमिंग, ई स्पोर्ट्स, फिटनेस सदृशाः नैके मण्डपाः सम्मेलिताः सन्ति। अस्य महाकुम्भस्य उद्देश्यं धनपतिनां निवेशकानां च भारतीय व्यापारेण सह संयोजनम् अस्ति। उद्योग संवर्धनान्तरिक व्यापार विभागस्य सचिवेन राजेश कुमार सिंहेन उक्तं यत् भारतं तृतीयः सर्वाधिक बृहत्तम स्टार्टअप इति तन्त्रस्य देशः अस्ति, अपि च देशे सम्प्रति स्टार्टअप इति एकलक्षाधिकाः सन्ति। यद्धि षोडशोत्तर द्विसहस्रतमे वर्षे स्टार्टअप इण्डिया उपक्रमस्य आरम्भे केवलं 300 एव आसीत्। तेनोक्तं यत् 50% ततः अपि अधिकाः स्टार्टअप इति उद्यमाः द्वितीयश्रेण्याः तृतीयश्रेण्याः नगरेभ्यः सन्ति। स्टार्टअप इत्यस्मिन् डीपटेक अपि च अनुसन्धान विकासयोः महत्वे प्रवदता श्रीमता सिंहेन उक्तं यत् आगामि मासेष् एकं भिन्नं समर्पितं च डीपटेक स्टार्टअप नीतये अन्तिमं रूपं प्रदीयते। तेन उक्तं यत् पारिस्थितिकीय तन्त्रेण विगतेष् 8 वर्षेष् 10 लक्षाधिकाः वृत्त्यवसराः 1 कोटितोप्यधिकाः अप्रत्यक्ष वृत्त्यवसराः सृजिताः। अस्माकं वार्ताहरेण ख्यापितं यत् अस्मिन् महाकुम्भे 2000 अधिकाः स्टार्टअप, 30,000 यावत् भाविनः उद्यमिनः, 50,000 यावत् उद्योगागन्तुकाः, 10 देशानां प्रतिनिधिमण्डलानि च भागम् गृह्णन्ति। भारतीय ऋतुविज्ञान विभागेन आगामि दिनत्रयार्थं बंगालस्य गांगेय क्षेत्रे ओडिशायां च मध्यमवृष्टि झंझावातयोः सम्भावना कृतास्ति। महाराष्ट्र, मध्यप्रदेश, छत्तीसगढ राज्यानां कतिपय भागेभ्यः नारंगवार्णिकी संचेतना अपि प्रसारिता। विभागेन उक्तं यत् मध्यप्रदेशस्य, छत्तीसगढस्य, झारखण्डस्य च कतिपय भागेष् झंझावातस्य सम्भावना अस्ति। वार्ताः।